ॐ अथ श्रीवीरभद्रकवचम् ॐ अस्य श्रीवीरभद्रकवचमहामन्त्रस्य पशुपतिऋषिः अनष्टुप् छन्दः श्रीभद्रकाली समेत वीरभद्रो देवता ह्रां बीजम् ह्रीं शक्तिः क्लीं कीलकम् श्रीभद्रकाली समेत वीरभद्रेश्वर प्रसाद सिद्ध्यर्थे जपे विनियोगः ध्यानम् रुद्रम् रौद्रावतारम् हुतवहनयनम् चोर्ध्वकेशम् सुदंष्ट्रम् व्योमाङ्गम् भीमरूपम् किणिकिणिरभसज्ज्वालमालावृताङ्गम् भूतप्रेताधिनाथम् करकमलयुगे खड्गपात्रे वहन्तम् वन्दे लोकैकवीरम् त्रिभुवन विनुतम् श्यामलम् वीरभद्रम् ॐ ललाटम् वीरभद्रो व्याचक्षुषे चोर्ध्वकेशभृत् भ्रूमध्यम् भूतनाथो व्यान्नासिकाम् वीरविग्रहः कपाले कर्णयुगलम् कन्धरम् नीलकन्धरः वदनम् भद्रकाली शोचुबुकम् चन्द्रखण्डभृत् करौ पाशकरः पातु बाहू पातु महेश्वरः ऊरुस्थलम् चोग्रदंष्ट्र आनन्दात्मा हृदम् भुजम् रुद्रमूर्तिर्नाभिमध्यम् कटिम् मे पातु शूलभृत् मूर्धानम् पञ्चमूर्धाव्यान्निटलम् निर्मलेन्दुभृत् कपोलयुग्मम् कापाली जिह्वाम् मे जीवनायकः स्वसद्वयम् पशुपतिर्लिङ्गम् मे लिङ्गरूपधृत् सर्वाङ्गुलेः सर्वनाथो नखान्मे नागभूषणः पार्श्वयुग्मम् शक्तिहस्तो सर्वाङ्गम् देववल्लभः सर्वकार्येषु माम् पायाद्भद्रकाली मनोहरः ब्रह्मराक्षसपैशाच भेतालरणभूमिषु सर्वेश्वरः सदा पातु सर्वदेवमदापहः शीतोष्णयोश्चान्धकारे निम्नोन्नतभुविस्थले कण्टकेष्वपि दुर्गेषु पर्वतेऽपि च दुर्गमे शस्त्रास्त्रमुखभल्लोकव्याघ्रचोरभयेषु च राजाद्युपद्रवे चैव पायाच्छरभरूपधृत् य एतद्वीरभद्रस्य कवचम् पठते नरः सोममृत्युभयम् मुक्त्वा सुखम् प्राप्नोति निश्चयम् मोक्षार्थी मोक्षमाप्नोति धनार्थी लभते धनम् विद्यार्थी लभते विद्याञ्जयार्थी जयमाप्नुयात् देहान्ते शिवसायुज्यमवाप्नोति न संशयः एतत्कवचमीशानि न देयम् यस्य कस्यचित् सुकुलीनाय शान्ताय शिवभक्तिरताय च शिष्याय गुरुभक्ताय दातव्यम् परमेश्वरि तव स्नेहान्मया प्रोक्तमेतत्ते कवचम् महत् गोपनीयम् प्रयत्नेन त्वयैवम् कुलसुन्दरी इति आकाशभैरवकल्पे श्रीवीरभद्रकवचम् नाम चत्वारिंशत्पटलः।